ಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠ ರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವಣ್ಣೋತಿ ಬಿಸೀದ ಸಾಧನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವದು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉದೋದ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುದತೇ ನಮಃ ಯಾಶಿಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನು ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರ ಮೃಡಯ ಯಾದೇ ರುದ್ರ ಶಿವಾ ತನೋರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನುಭಾಷಂತಮಯಾ ಗಿರಿಶಂತಾ ಬಿಚಾಕಷಿ ಯಾಮಿ ಶೃಂಗಿರಿಶಂತ ಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಗುರುಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯದಾನಸ್ಸರ್ವಮಿಜ್ಜಗದಯಕ್ಷ್ಮಗುಂಸುಮನಾಸತ ಅದ್ಯ ವೋಚದಿ ಭಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಯಿ ಗಚ್ಛ ಸರ್ವಾಂ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ಸಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ಸು ಮಂಗಲಃ ಯೇ ಕ್ಷೇಮಾಗುಂ ರುದ್ರಾ ಅಭಿತೋ ದಿಶ್ರಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದಯನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾದಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಭೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಂ ನಮಃ ಪ್ರಮುಂಚ ದನ್ವನಸ್ವಮುಪಯೋರಾತ್ನಿಯೋರ್ಜಾಂ ಯಾಶ್ಚ ದೇಹಸ್ಥ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ದನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಂ ಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ದನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಹುತ ಅನೇಶನ್ನಸ್ಯೇಷ ಬಾಬುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೇ ಹೇತಿರ್ಮೀಢುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನು ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜಾ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯಾನಾತತಾಯ ಕೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುದತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ದೃಢಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯಿಷುದಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकालिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विचीमते पतीनां पतये नमो नमो बभ्रुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगतां पतये नमो नमो रुद्राय दधाविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवत्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम कृष्णवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नम ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमस्त्रिकाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो श्रीमद्भ्यो नक्षञ्चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषु मद्भ्यो दन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिददानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविद्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो भ्रातेभ्यो भ्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः శత్రుభ్యః సంగ్రహీతృభ్యశ్చ భో నమో నమః స్తక్షభ్యో రథకారేభ్యశ్చ భో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ భో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ భో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ భో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ భో నమో నమః శ్వభ్యశ్వపతిభ్యశ్చ భో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వరే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూదినే చ నమో బిల్మిణే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో ధృష్ణవే చ ప్రవృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమః తీక్ష్ణే చ వేదాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కూప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేద్యాయ చ విద్యుత్యాయ చ నమః ఇంద్రియాయ జాతప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే బధాయ చ దూరే బధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాద్యాయ च नमः षष्ट्याय च भेन्याय च नमः त्रिगत्याय च प्रवाद्याय च नम हिरण्याय च प्रपत्याय च नमः किगुंशिराय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सर्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च तूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो भगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुन्हृदयेभ्यो नमो भिक्षीणकेभ्यो नमो विचिन्वत्येभ्यो नम आनिर्हतेभ्यो नम आविभत्केभ्य द्राप्ये अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्चना ममत या ते रुद्रशिवा तनु शिवा विश्वा भेषजी शिवा रुद्रस्य भेषजीतया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा रश्यमतद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्यामदवरुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधी पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभाभितो वधीर्भविष्मन्तो नमसा विधेमते आराते गोघ्न उत पूरुषग्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयता च न शर्म यच्च द्विवर्हा सुविश्रुतम् गर्त सदंयुवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायो अवस्थिरा मगवद्यस्तनुष्वमीढ्व शोकायतनयाय मृणया मीढुष्टमशिवतम शिवो नः सुमना भवा परमे वृक्ष आयुधन्निधाय कृत्तिवसान आचर पिनाकम् बिभ्रदागहि विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुम् सहस्रयोजने वदन्वानि तन्मसि अस्मिन् महत्यर्णवे अन्तरिक्षे भवा अदि नीलग्रीवाशिति कण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुन् रुद्रा उपश्रिताः ये वृक्षेषु तत्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्तपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बतिरक्षय ऐलभृदायभ्युदः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुंसहस्रयो जने भजन्वानि तन्मति नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्ये सामन्न पातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिशीर्दशोदिशीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते विष्मो यश्च नो द्वेष्टितम् भोजम् वे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषु सुदन्वायो विश्वस्य क्षयति भेषजस्य यश्वा महेशौ मनसाय रुद्रम् नमो विर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ शञ्च मे मयश्च मे प्रियञ्च मे नु कामश्च मे कामश्च मे सौ मनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सूच्य मे प्रसूच्य मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवादुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सूषा च मे सुदिनम् च मे शान्ति शान्ति शान्तिः ॐ तेजोऽसि तत्ते प्रयच्छामि तेजस्वदस्तु मे मुखम् तेजस्वच्छिरो अस्तु मे तेजस्वान् विश्वतः प्रत्यङ्ग तेजसादं विवृद्धिमा ओजोति तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम् ओजस्वच्छिरो अस्तु मे ओजस्वान् विश्वतः प्रत्यन्न ओजसा संविदृद्धिमा पयोसि तत्ते प्रयच्छामि पयस्वदस्तु मे मुखम् पयस्वच्छिरो अस्तु मे पयस्वान् विश्वतः प्रत्यन्न पयसा संविवृद्धिमा आयुरसि तत्ते प्रयच्छामि आयुष्मदस्तु मे मुखम् आयुष्मच्छिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यन्न आयुषा संविवृद्धिमा इममग्न आयुषे वर्चसे कृते प्रियगुम्रेतो वरुण सोमराजन् मा देवास्मा अदिते शर्म यच्छ विश्वे देवा जरदश्चिर्यजासत आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि यतो वातो मनोजवा यतः क्षरन्ति सिन्धवः तासां त्वा सर्वासागुं रुजा अभिषिञ्चामि वर्चसा समुद्र इवासि गम्हरा सोम इवास्यदाभ्यः अग्निरिव विश्वतः प्रत्यन्न सूर्य इव ज्योतिषा विभुः अपान्यो द्रवणे रसः तमहमस्मामुष्यायणाय तेजसे ब्रह्म वर्चसाय गृह्णामि अपाय ऊर्मौ रसः तमहमस्मामुष्यायणाय ओजसे वीर्याय गृह्णामि अपान्यो मध्यतो रसः तमहमस्मामुष्यायणाय पुष्टये प्रजननाय गृह्णामि अपान्यो यज्ञियो रसः तमहमस्मामुष्यायणाय आयुषे दीर्घायुत्वाय गृह्णामि न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशो परेण नाकं निहितं गुहाया बिभ्राजते दप्यतयो विशन्ति वेदान्तविद्या न सुनिश्चितार्था सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ते सर्वे धरं विपापं परमेश्वभूतं यत्पुण्डरीकं पुरमद्य सद्गृष्टम् तत्रापि दहरं गगनं दिशो कस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिरेनस्य यः परस्य महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीमहिषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु
Shanti, Shanti, Shanti.